नमस्कारः सर्वेभ्यः। इदानीं परिचयवर्गे सर्वेषां स्वागतम्। ध्यानश्लोकेन आरम्भं कुर्मः।
सरस्वती
वदतु उच्चै
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा।
गुरुर्ब्रह्मा गुरुर्विष्णु
गुरुर्विष्णुः गुरुर्देवो महेश्वरः
देवो महेश्वरः गुरुसाक्षात् तस्मै श्रीगुरवे नमः।
अगजानन पद्मार्कं गजाननं
अनेकदन्तं वक्त्रं
भक्तदन्तं उपास्महे।
वसुदेवसुतं देवं कंसचाणूरवर्धनं
देवकी परमानन्दं
कृष्णं वन्दे जगद्गुरुं
शुक्लाम्बरधरं
विष्णुं शशिवर्णं चतुर्भुजं
प्रसन्नवदनं
ध्याये
सर्वविघ्नोपशान्तये। हरः पारहरि शिवो दत्तां सदाशिवं न जानामीति नो ब्रूयात् सर्वभयतः। आसन्नाय सुदूराय दत्ताय अपकरात्मने सुलभाय दुर्गाय नमश्चित्ताय शुम्भवे। नमस्ते शारदा देवी काश्मीरपुरवासिनी त्वामहं प्रार्थये नित्यं विद्याबुद्धिं च देहि मे। नमस्ते अस्तु महामाये श्रीपीठे सुरपूजिते शङ्खचक्रगदाहस्ते महालक्ष्मी पद्मासनस्थिते देवी परब्रह्मस्वरूपी परमेशी जगन्माता महालक्ष्मी नमोस्तुते। सदा
सवितुर्मध्यमध्यवर्ती नारायण
सरसिदासनसन्निधिष्टः केयूरवान्नपान्नकरवान्दलवाद्यदीति आदिहिरण्मयवपुत्रचक्रः न सूर्यं जगतानाथं
ज्ञानविज्ञानमोक्षदं
महापाहरं देवं सूर्यं
प्रणमाम्यहम्।
सर्वमङ्गलमङ्गले
शिवे
सर्वासुखादिके शरण्ये
शरण्ये गौरिनारायणे
अन्नपुण्ये सदा पूर्णे
शङ्करप्राणवल्लभे
ज्ञानवैराग्यसिद्ध्यर्थं
दीक्षापार्णेति
राम
रामभद्राय
रामचन्द्राय वेदसे रघुनाथाय
नाथाय
श्रीकाय पतये नमः।
आपदा महत्तारं दाधारं सर्वसम्पदां लोकामि रामं श्रीरामं भूयो भूयो नमाम्यहम्। मनोजवं मारुतुल्यवेगं
चन्द्रियं
जितेन्द्रियां वरिमदां वरिष्ठम्
वातात्मन्यमुख्यं श्रीरामदूतं शरणं प्रपद्ये। बुद्धिर्बलं यशोधैर्यं निर्भयत्वं
अजाड्यं
वक्त्रं च हरणे भवेत्।
कुत्र स्थापितं गतवर्गे?
पञ्चमः पाठे।
But there's one minute, too much noise here. पञ्चमपाठे रूल्स् आफ् द पासिव् वाय्स् तत्र पठतु भगिनि ब्रह्मराजमहोदय पठतु द रूल्स् आफ् पासिव् वाय्स् कर्मणि प्रयोगस्य नियमाः.
Just one second, Bhagini, which page is this, sorry?
84.
The rules 84. Okay, thank you, Bhagini, I got it. The rules of the passive voice. In the passive voice object, karma padam is predominant. Katru padam is in dhritiya vibhakti. Udharanam. Chatrena shlokaha atyate. Tata prashnaha. पृच्छ्यते अस्माभिः घटि
कुत्र पठति
तया
प्रश्नः पृच्छ्यते. यु आर् रैट्. अस्माभिः घटि दृश्यते कर्मकरैः.
एकनिमिषम्
84 पेज् मेडम्. रूल्स् आफ् पासिव्
वाय्स् पेज् डजन्ट् हाव् दाट्.
Yes, we do. In the middle of this, middle of the page.
Karmani Prayoga Se Niyama.
Karmani Prayoga. Okay.
Is that correct? Am I doing correctly? Or
yes,
am I doing
yes, sir, you're right. Yeah.
Okay, so do you want me to start again? Rules of passive voice. Karmani Prayoga Se Niyama. In passive voice, the object, karma padam is predominant. Kartru padam is in tritiya vibhaktih. Udharanam. Chatrena shlokah patyate. Tata taya.
Patyate.
Taya prashnah drishyate. Asmabihi gati drishyate. Karma karaihi karyani.
एतानि वाक्यानि इदानीं कर्तृप्रयोगे वदतु. कर्मणि प्रयोगे कर्मपदं प्रिडामिनेण्ट्. कर्तृप्रयोगे कः पदं प्रिडामिनेण्ट्?
कर्तृपदं.
छात्रः श्लोकः पठति.
छात्रः. ओके.
छात्रः
श्लोक.
श्लोकं पठति.
श्लोकं कर्तृप्रयोगे सब्जेक्ट् आब्जेक्ट् देन् वर्ब्. सब्जेक्ट् कर्तृपदम् आब्जेक्ट् तदेव कर्मपदं क्रियापदं. तदनन्तरं क्रियापदं पठति. तत्र कर्मणि प्रयोगः तत्र तृतीया विभक्ति. कर्तृपदं बिकम्स् तृतीया विभक्ति. छात्रः बिकम्स् छात्रेण. छात्रेण श्लोकः पठ्यते. तत्र छात्रः श्लोकं पठति. इदानीं तया द्वितीयवाक्यं वदतु. कर्तृप्रयोगे
दट् विल् बि सा, इसन्ट् इट् भगिनी? सा प्रश्नं पृच्छति.
उच्चै वदतु महोदय, न श्रूयते.
ओ सारि. सा प्रश्नं पृच्छति.
अग्रिमे अस्माभिः घटि दृश्यते.
सो अस्माभिः, ओ दट् विल् बि अस्माभिः. सो
मया.
सो या मया. इस् इट् मया? ओके. मया gati, so it will be gati
not maya
kimartam kimartam maya aham kimartam kalpana bagini kimartam maya
no no
aham
vayam vayam
it will be aham actually maya
aham va aham va asmabihi
vayam
सुधा भगिनी म्यूट् मध्ये भवते इदानीं कल्पना भगिनी वदतु किमर्थं मया युसेट्
बिकास् इट् इस् ऐ नाट् अमया इट् वुड् वयं सो अस्माभिः इस् द बहुवचन आफ् अस्मत् शब्द एण्ड् दाट्स् वै ऐ वास् सेयिङ्ग् मया इस् द एकवचन बट् नो इट् वुड् बि वयं वयं घटी दृश्यत् वयं घटी दृश्यति
पश्यामः
पश्यामः
इट्स् अ डिफिकल्ट् वर्ड् दट् इस् घटीम् इदानीं कर्तृप कर्मपदं द्वितीयाविभक्ति कर्तृपदं प्रथमाविभक्ति वयं घटीं पश्यामः
पश्यामः
नवदास् कर्म कर्मकरैः कार्याणि क्रियन्ते
कर्मकरैः कर्मकराः कार्याणि कुर्वन्ति
वेरि गुड् कार्याणि इदानीं का विभक्ति
कर्तृप्रयोगे द्वितीया विभक्ति बहुवचनं
बहुवचनं
पुस्तकलिङ्गे प्रथमविभक्ति
समानमेव प्रथमा द्वितीया समानमेव कर्मपदम् इस् रीड् द सेण्टेन्स् नरोत्तमदास् इफ् द कर्मपदम् इस्
इफ् द कर्मपदम् इस् मेन्शन्ड् इन् द सेण्टेन्स् इट् शुड् बी इन् प्रथमा विभक्ति
प्रथमाविभक्ति
उदाहरणं भवत्या कार्यक्रमः दृश्यते
वदतु इदानीं कर्तृप्रयोगे वदतु
भवती कार्यक्रमं पश्यति
वेरि गुड् श्यामलदास् बालकेन
बालकेन रोटि रोटिका खादते
खाद्यते
बालकेन रोटिका खाद्यते
खादते वा
खाद्यते
खाद्यते
बालकः रोटिकां खादति मया देवाः पूज्यन्ते
मया पूज्यन्ते मया
कर्तृप्रयोगे
अहं देवान् पूजयामि किमर्थं पूज्यन्ते न
यत्र कर्मणि प्रयोगः कर्मपदम् फालोस् दि कर्मपदम् फालोस् दि कर्मपदम् The verb will be according to the Karmapadam. That's the fourth rule actually. Chalakena, padatu, padatu.
Chalakena vahanam chalyate. Chalakaha vahanam chalati.
Very good. Sudha Bhagini.
The verb will be according to the Karmapadam. Shishena prashnaha pruchyate. शिष्येण प्रश्नाः पृच्छन्ते शिष्यैः प्रश्नः पृच्छते अत्र प्रश्नः प्रथमवाक्ये प्रश्नः एकवचनं, तत्कारणात् पृच्छते अपि एकवचनम् अस्ति,
एकवचनं.
द्वितीयवाक्ये प्रश्नाः इति बहुवचनमस्ति, तत्कारणात् पृच्छन्ते इति बहुवचनं. शिष्यैः प्रश्नः पृच्छ्यते, शिष्यैः तु बहुवचनं, परन्तु प्रश्नः एकवचनम् एव, तत्कारणात् पृच्छ्यते इति एकवचने अस्ति.
उत्तमम् उत्तमं भगिनि. इदानीं कर्तृप्रयोगे वदतु त्रीणि वाक्यानि.
शिष्येण प्रश्नः पृच्छ्यते, शिष्यः प्रश्नं पृच्छति, शिष्येण प्रश्न.
इदानीं कल्पना भगिनि,
सारि,
ओके, द सेकेण्ड् वन्.
धन्यवादः भगिनि.
शिष्यः प्रश्नाः पृच्छति, because it doesn't, the karmani prayog doesn't change according to the karma, kartari prayog, sorry.
Shishyaha, vadatu punarapi vadatu.
Shishyaha prashnaha pruchhati,
not prashnaha, prashna dvitiya vibhakti.
Oh, prashna,
it should be on the dvitiya vibhakti.
Yeah, dvitiya would be prashna, would be द्वितीया विभक्ति. प्रश्नान् पृच्छति.
तृतीयवाक्यं,
शिष्येः प्रश्नः पृच्छते, शिष्येः, सो इट्स् नौ अनेकवचन, बहुवचन, सो इट् वुड् बी शिष्याः प्रश्नः, शिष्याः, नो, द
शिष्याः,
शिष्याः प्रश्नं पृच्छन्ति.
ओके, शिष्यः कर्तृपदं, प्रश्नः आल् दट्. इदानीं रूल्स् पठतु नरोत्तमदास्. In the above example, Shishyaha.
Shishyaha is the Kartripadam, Prashnaha is the Karmapadam, and Prachyate is the Kriyapadam. In the first sentence, Karmapadam, Prashnaha is in Ekavachanam, and hence Kriyapadam is also in Ekavachanam, Prachyate. In the second sentence, Karmapadam, Prashnaha is in plural, Bahuvachanam, and hence Kriyapadam is in plural as Prachyante. In the third sentence, Kartripadam Shishyaihi is in plural, but since the Karmapadam Prashnaha is in Ekavachanam, the verb is singular only as Prachyate. Summing up,
okay.
In, summing up, summing up. Karmani Prayoga. In passive voice, the verb form will only change if the Karmapadam changes and not if the Kartripadam changes. Here the
in the first sentence is Shishyena, Yeka Shishyena, Dutiyamapi Shishyena, Tritiya Vakya Shishyaihi. So in the thing, the Karma Padam changes, the verb will change only if the Karma Padam changes. Karma Padam is Prashnaha, 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 Tatra Prachyate, Prashnaha Prachyate, only if it depends on the Karma Padam, the verb. Verb follows the Karma Padam. Hence, the Kriyapadam is always in second rule. First rule is Karmapadam changes
according to the karma. According to karma.
Karmapadam will be Pratama Vibhakti.
Second rule is, the Kriyapadam is always in Atmanepadi, and it's not in Parasmepadi.
And follows the Karmapadam, Vibhakti, and, I mean, number.
Patti Yoga, Yayoga, Hatte, Patiate. And forget about Madhiva Purusha and Uttama Purusha. generally for any root of the passive form is not by is got by adding ya and te. Udaharan patati patyate. Okay. Patyate patyate paru ari and that shamadadas patyate.
Patyate
patyate patyate patyante patyate patyate patyadhe pathe pathyavahe pathyamahe.
Right. Okay, our next page 86. Tatra patatu Ramaha patam likati. Page 86. Patatu Shamadadas.
Ramaha patam likati. Ramena
Karmani Payoga Ramena Pataha
Likati
Likyate
Idani Meva Patikila Yate Root Yoga Haya Yoga Hate Likki Yoga Haya Yoga Hate Likyate. Okay, now we can skip all that and now we'll do the Abhyasam. इदानीं नरोत्तमदास् फस्ट् प्रथमं रैट् अदर् नम्बर्स् आफ् द पासिव् वर्ब्स्. ओके, लिख्यते लिख्येते लिख्यन्ते गम्यते झटिति पठतु.
गम्यन्ते ध्रियते ध्रियेते ध्रियन्ते क्रियते क्रियेते क्रियन्ते ज्ञायते ज्ञायेते ज्ञायन्ते दीयते दीयेते दीयन्ते त्यजते त्यजेते त्यजन्ते.
त्यजते त्यज्यते आल्वेस् यकार अस्ति त्यज्यते रूट् धातु त्यज्यते त्यज्यते
त्यज्यते त्यज्येते त्यज्यन्ते पठ्यते पठ्येते पठ्यन्ते दृश्यते दृश्येते दृश्यन्ते स्थाप्यते स्थाप्येते स्थाप्यन्ते निन्द्यते निन्द्येते निन्द्यन्ते.
ओके, लेट्स स्किप दट् अभ्यासं द्वितीय अभ्यासं रैट् द पासिव् फार्म्स् आफ् द वर्ब् शोन् इन् द एक्साम्पल्. मुरली भगिनी लिखति.
हियर् देर् इस् वन् रैट् आल् द फार्म्स् आफ् द फालोयिङ्ग् वर्ब्स् passive
verb. You've just done everything. You've just done the...
Gacchati, gamyate, likati, likhyate, jigrati, jigrayate.
Jigrati. Tatra dhatu kim? Tatra dhatu kim? Gana kim? Jigrati.
Jigra.
धातु किम् कस्मिन् गणे अस्ति?
जिग्रति जिग्रतिम् अस्ति.
जिग्रति धातु किम्? ज्योत्यादिगणे धातु किम्? सो ग्रा इति जुहोत्यादिगणे द्वित्वं भवति ग्रा तदनन्तरं जिग्रा भवति तत्र ईत्व भवति तत्र. सो जिग्रति दट् इस् कर्तरिप्रयोगः. कर्मणि प्रयोगे ग्रा इस् धातु. ग्रा कर्मणि प्रयोगः सुलभमेव. धातु याते ग्रायते बट् यु हव् टु नो द धातु. कर्मराज महोदय धन्यवादः. कर्मराज महोदय
ग्रायते.
आं भगिनि पच्यति.
कर्मराज महोदय
आं भगिनि पच्यति पच्यते नीयति नयति नीयते पिबति पीयते.
धातु किं तत्र पिबति तत्र धातु किं?
पा धातु सन्ति भगिनि.
पा धातु. नयति तत्र धातु किं?
नयति नयति इस् इट् नी नी धातु नीयते.
इदानीमेव सम्यक् उक्तवान् उत्तरं.
नियति नी नी धातु इस भगिनी सो उत्तर
नी धातु टु लीड् नयति
धातु
तत्र कर्मणि प्रयोगे
कर्मणि प्रयोगे सो नयति इसन्ट् इट् भगिनी कर्मणि प्रयोगे
नयति कर्तृप्रयोगः कर्मणि प्रयोगे इदानीमेव उक्तवान्
नीयते या नीयते
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 नीयते पिबति
पिबति इस् पी धातु सो पीयते पश्यति इस् दृश् धातु सो दृश्यते यच्छति इस् दा धातु सो इट् विल् बि दीयते शृणोति इस् श्रु धातु सो इट् विल् बि
कल्पना भगिनी शृणोति
शृणोति श्रूयते जानाति जानाति इस् जानाति वुड् बि वाट्
धातु किं जानाति तत्र धातु किं
जा धातु
ज्ञातु
ज्ञायते
ज्ञायते
सूचयति सूच्यते
सूच्यते ओके धरोतु वदामि धन्यवादः भगिनि चेञ्ज् द वाय्स् फ्रम् आक्टिव् टु पासिव्
सः नयति तेन नीयते सा निन्दति तया निन्द्यते भवती जानाति भवत्या ज्ञायते गायकः गायति गायकेन गीयते सुरेशः गच्छति सुरेशेन गम्यते
वेरि गुड् इदानीं श्यामलदास् धन्यवादः श्यामलदास् रजकः
क्षालयति रजकेन क्षालयते रजकेन क्षाल्यते
क्षाल्यते
धातु क्षाल् क्षाली
क्षाल्यते
सो क्षालयति चुगादिकरण तस्मात् निजन्तं तत्र निच् भवति सो क्षालि देन् इकारः डिसपियर्स् क्षाल्यते
आं महोदय क्षाल्यते रजकः क्षाल्यते भक्तः वन्दते भक्तेन वन्द्यते बालकः खादति बालकेन खाद्यते शिष्यः पिबति शिष्येन पीयते
वेरि गुड् एनिथिङ्ग् एनि धातु एण्डिङ्ग् इन् दीर्घ आकारः इट् बिकम् ईकारः दीर्घ ईकारः सुधा भगिनी चेञ्ज् द फालोयिङ्ग् सेण्टेन्स् फ्रम् पासिव् टु आक्टिव्
फालोयिङ्ग् सेण्टेन्सेस् फ्रम् पासिव् टु आक्टिव् मया कार्यं क्रियते अहं कार्यं करोमि तया फलं खाद्यते सा फलं खादति सेवकेन सञ्चिकाः नीयन्ते सेवकाः सञ्चिकां नयन्ति
सेवकेन
सेवकः छात्रेण गृहपाठाः लिख्यन्ते गृहपाठं लिखति
गृहपाठं वा पाठाः गृहपाठाः
गृहपाठान् लिखति
गृहपाठान्
लिखति
लिखति कल्पना भगिनी
दरिद्रैः कष्टं सह्यते सो दरिद्राः कष्टं सहति तैः
दरिद्राः
या दरिद्राः ऐ सेड् दरिद्राः सह्यन्ति इट् वुड् बि सह्यन्ति दरिद्राः
धातु सह्यते सह्यते इन् कर्मप्रयोगः सो वाट् विल् बि इन् कर्तरि
सह्यन्ति रैट्
न न न न न वै अकार तद्
because it's bahuvachan how the bahuvachan would happen then sahar dhatu right
the dhatu is sahar in this so what is the laklakara
sahanti
sahanti is a saka sa atra atmane padam sahate sahate sahante sahata dhatu is apne pada dhatu so sahate sahete sahante sahate सहेते सहन्ते
या बट् सहति वुड् बि एक वचन बहुवचन वुड् बि सहन्ति
कल्पना भगिनी द वर्ब इट्सेल्फ इज आत्मनेपदम्
कर्मणि प्रयोगे सर्वदा आत्मनेपदम् ओके कर्तरिप्रयोगे कुड् बि परस्मैपदम् आत्मनेपदम् उभयपदे okay but you have to know what the laklakara is prathama purusha then you have to see whether it is ekavachanam dvivachanam bahuvachanam idani kalpana bhavi continues taihi
taihi karyakramaah ikshyante taihi sa
ikshyante okay that is katri karni prayog hai
ya e karyakramam इक्षति
तैः
या तैः
तैः
या
तृतीया विभक्ति बहुवचनम् इदानीं वाट् यु नीड् नौ देर्
या तैः सा इट् वुड् बि ते 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 वे देट् वेण्ट् अनेकवचन सो बहुवचन इट् शुड् बि बहुवचन सो इट् वुड् बि कार्यक्रमाः रैट्
ते कार्यक्रमाः वा इन् कर्तरिप्रयोगे द कर्मपदम् अस्ति द्वितीया विभक्ति
द्वितीया विभक्ति कार्यक्रमान् इक्षन्ति
के यु सेड्
या
इक्षति इक्षन्ते आत्मनेपदे दातु ओके नेक्स्ट् वन् भगिनि
भिक्षुक्या धनं याच्यते भिक्षुक्या धनं याच्यते सो भिक्षुकाः धनं
भिक्षुक्या का विभक्ति वचनं किं विभक्ति वचनं किं
सो भिक्षुक्या वुड् बि
सर्वदा कर्मणि प्रयोगः तत्र सर्वदा
तृतीया
या भिक्षुक सो भिक्षुक्या
लिङ्गं वचनम् अण्ड् विभक्तिका कल्पना भगिनि भिक्षुक्या लिङ्गं वचनं विभक्तिका
नो द भिक्षुक इस् अ रामशब्द रैट्
नो 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 नो
हौ डि नो 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 सुधा भगिनि डोण्ट् 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 रिप्लै भिक्षुक्या इट् सेस्
So that's what I'm trying to bhikshuk bhikshuka is a rama shabd
why but rama shabd will be vatrita rama shabd do it tritiya vibhakti
yeah tritiya vibhakti would be ramaihi bahuvachan so रामेण रामाभ्यां रामैः
भिक्षु क्या एस् लिङ्गं किं वचनं किं विभक्ति का ऐ वाण्ट् टु नो दट् फर्स्ट्
पुल्लिङ्ग अकारान्त पुल्लिङ्गशब्द
एण्ड्
या भिक्षुक्याः ऐ एम् नाट् स्टिल् गेटिङ्ग् क्या भिक्षुक्याः क्या
देर् इस् नो भिक्षुक्याः देर् इस् नो विसर्गं देर् भिक्षुक्या कर्मणि प्रयोगे तत्र विभक्ति का तत्र
नो ऐ एम् नाट् स्टिल्
गेट् द हेङ्ग् आफ् कर्मणि प्रयोगः धर्मराज महोदय केन् यु एक्स्प्लेन् फस्ट् सुधा भगिनी डोण्ट् नो डोण्ट् आन्सर् प्लीस् धर्मराजन् महोदय केन् यु एक्स्प्लेन् नो नो जस्ट् ऐ वाण्ट् ओन्ली धर्मराजन् महोदय टु आन्सर् धर्मराज रिप्लै भिक्षुक्या इस् का विभक्ति का लिङ्गं किं तत्र वचनं किम्
आं भगिनि सो इट्स् स्त्रीलिङ्गं एकवचनं तृतीयाविभक्ति
सो डु दट् स्त्रीलिङ्गम् एकवचनं प्रथमाविभक्ति वदत्
सो प्रथमाविभक्ति विल् बि भिक्षुकी
ओ सो ऐ मेड् मिस्टेक् देर् सो ऐ वास् थिङ्किङ्ग् इट्स् रामशब्द हौ कम् भिक्षुकी इस् इट्स् भिक्षुकी मीन्स् वाट् द लेडी लेडी
लेडी बेगर् लेडी बेगर्
ओ ऐ डिण्ट् नो
नदी शब्दवत् नदी शब्दवत्
नौ इट् मेक्स् सेन्स् टु मी सो देट्स् वै वै दिस् क्या 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 ऐ वास् रियली वरी दिस् ओके काट् इट् नौ
नद्या नद्या नदीभ्यां नदीभिः नद्या
रमा शब्द रमया
no 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 no
no no no no no no no दीर्घ ईकारान्त शब्दं भिक्षुकी सो वाट् इस् द नदी शब्दं भिक्षुकी तत्र वदतु भिक्षुकी शब्दं वदतु
गौरीशब्द
या गौरीशब्द वद इदानीं वदतु डू द होल् शब्दं भगिनि कल्पना भगिनि
भिक्षुकी भिक्षुक्यो भिक्षुक्यः भिक्षुकीं
भिक्षुकीं दीर्घैकारः
भिक्षुकीं भिक्षु भिक्षुक्यौ
नदी नद्यौ
भिक्षुक्यौ भिक्षुक्याः भिक्षुक्याभ्यां भिक्षुकीभिः भिक्षुक्ये
भिक्षुक्यै नद्यै
या भिक्षुक्यैः क्यै या नाट् विसर्ग भिक्षुक्यै भिक्षुक्याभ्यां भिक्षुकीभ्यः भिक्षुक्याः भिक्षुक्याभ्यां
भिक्षुकीभ्यां नदीभ्यां कीप् द होल् भिक्षुकी होल् वर्ल्ड् भिक्षुकीभ्यां भिक्षुकीभ्यः
भिक्षुकीभ्य भिक्षुक्याः भिक्षुक्योः भिक्षुकीणां भिक्षुक्यां भिक्षुक्योः भिक्षुकीषु
रौ इदानीं सो अत्र वाट् इस् दत्तं तत्र भिक्षुक्या धनं याच्यते सो भिक्षुक्या इस् लिङ्गं वचनं विभक्ति का
या इट्स् तृतीया विभक्ति सो भिक्षुकी धनं
धनं
याच्यति रैट्
नो यकार याच्यते स्व कर्मणि प्रयोगः इदानीं कर्त्रि भिक्षुकी धनं किं वदतु
याच्यते
याच्यते सो याच् इति दातु यदा इति दातु सो याचते ओके बालेन इदानीं भवती एव वदतु बालेन बिकास् यु सीम् टु बि स्ट्रग्लिङ्ग् बालेन
बालेन घट्यः दृश्यते दृश्यन्ते बालेन घट्यः दृश्यन्ते सो इट् वुड् बि बालः रैट् बालः घट्यं पश्यन्
घट्यः तत्र घट्यः इति विभक्ति का लिङ्गं का
घट्य घट्यः वुड् बि घटी घटी शब्द मती शब्द रैट् मती और
घटी शब्द
घटी शब्द या सो घटी मती शब्द रैट् सो मत् घट्यः वुड् बि तृतीया विभक्ति
यु जस्ट् डिड् योर् भिक्षुकी सेम् लैक् दट् घटी इस् अ शब्दं घट्यः इस् घटी घट्यौ घट्यः नदी नद्यौ नद्यः सो इदानीं बालः
बालः घटीं घटीः दृश्यन्ते
न दृश्यन्ते
दृश्यन्ते
दृश्यन्ते कर्मणिप्रयोगः य आगच्छति तत्र लट्लकारे किं वदति दृश् दातु लट्लकारे कथं भवति
पश्यति
भगिनी पश्यति ओके ताभिः डू द नेक्स्ट् वन्
ताभिः पुष्णानि घ्रायन्ते ओके ताभिः
ताभिः इदानीं लिङ्गं वचनं विभक्तिका ताभिः लिङ्गं किं वचनं किं विभक्ति किं विभक्तिका ताभिः
ताभिः
भगिनि कर्मणि प्रयोगे सर्वदा तृतीया विभक्ति ऐदर् एक द्वितीय बहुवचनं मे बि डिफ्रेण्ट् आल्वेस् सर्वदा तृतीया विभक्ति
सा
भगिनि मुरळी भगिनि आन्सर्
सा पुष्पाणि सा पुष्पं घ्रायति
वै हेव् यु चेञ्ज् द पुष्प पुष्पं द पुष्पं वै हेव् यु चेञ्ज् द वचनं
ओ पुष्पं पुष्पाणि या या सो पुष्प वुड् बि दिस् थिङ्ग् वाट्
पुष्पाणि तत्र वचनं लिङ्गं किं विभक्तिका तत्र
पुष्प इट्स् नपुंसकलिङ्ग पुष्पाणि
नपुंसकलिङ्गं
सो इट् वुड् बि
सो पुष्पं दु विभक्तिपदान् एव्रिथिङ्ग् पुष्पं
पुष्पं पुष्पे पुष्पाणि पुष्पं पुष्पे पुष्पाणि पुष्पे
पुष्पाणि अत्र किम् अत्र पुष्पाणि वचनं लिङ्गं लिङ्गं नपुंसलिङ्गम् उक्तवती तत्र
द्वितीया विभक्ति बहु
विभक्ति सो विभक्ति विरुच्ये प्रथमा द्वितीय नपुंसकलिङ्गे
नो सो इट् वुड् रिमेन् सेम् सा पुष्पाणि घ्रायन्ति इस् दट् रैट्
नो वि जस्ट् टोल्ड् यू in the previous the number 3 exercise number 3 number 2 jigrati jigrati becomes gra iti dhatu graayate so atra dattam graayante so the prathama natlakara will be
gra
kartri gra dhatu
jigrante
jigrati jigratah jigranti jigrati is given there look jigrati becomes graayate in karmani prayoga kimartam jigrati tatra jugoti adigane asti tatra dvitvam bhavati just like dadati pibati like that they all is they are duplicates so but they are not only duplicate something peculiar happens to certain verbs like a gra dhatu so gra gra becomes jigra and then jigra jigrati so atra graayante karmani prayogi hai graayate graayete graayante so it will be in ordinary kartri prayogi hai will be
jigranti
do the all the three jigrati
jigran jigrati jig jigrati jigrat jig
ha
jig jigrati jigran jigra
do pat dat lat lakare
pathati
pathati aluche vadati magira I can't hear you
yeah yeah pathati
लट्लकारे पट् धातु वदतु
या ऐ एम् ट्रैङ्ग् टु रिकलेक्ट् द सेकेण्ड् वन्
भगिनि पठति पठतः पठन्तु ऐ हव् फोगॉटन्
पठति पठतः पठन्ति पठसि पठथ पठथ पठथ
पठतः पठत
पठामि पठावः पठामः
इदानीं जिग्रति वदत्
जिग्रति जिग्रतः जिघ्रन्ति जिघ्रसि जिघ्रसि जिग्रथ जिग्रथ जिघ्रामि
जिघ्रथः
या जिग्रथ जिग्रथ जिघ्रामि जिघ्रामः जिघ्रावः जिघ्रावः
जिघ्रामः इदानीं गायकैः गीतानि गीयन्ते
गायकैः
गायकैः इदानीम् एव्रि पदं टेल् मी वाट् लिङ्गं वचनम् अण्ड् विभक्ति गायकैः
इस् तृतीया विभक्ति पुल्लिङ्ग रामैः गायकैः गीतानि पठन्ते सो इट् वुड् बी गायकाः गीतानि गायन्ति
ओके धन्यवाद चेञ्ज् द फालोइङ्ग् फ्रम् एक्टिव् टु पासिव् इदानीं नरोत्तमदास
बालकः पाठं पठति बालकेन पाठः पठ्यते सा घटीं पश्यति तया घटी दृश्यते भक्तः देवं वन्दते
भक्ताः
देवं वन्दते भक्तैः देवं वन्दते वन्द्यते देवः भक्ताः देवः वन्द्यते
वन्द्यते
भक्ताः जलं नयन्ति ताभिः जल
उच्चैः वदतु उच्चैः वदतु
ताभिः जलं नीयते नीयते ताभिः जलं नीयते
नीयते नीयन्ते इस् जलं नीयते इट् गोस् the karmani prayoga goes to the kartra prayoga which is the jalam okay vayam
adato vayam vayam uttaram likhamah asmabih uttara uttaram likhyan likhyanti na likhyate
which is being written
uttaram
So the number
eka purusha na prathama purusha na
oh too much noise here I can't hear anything can you speak loud please there's too much noise outside
uttaram eka vachanam likhyate likhyate
likhyate idanim archakah
archakah devan pujayati archakena devaha pujyate na pujyante
pujyante murli bagini dhanyavad murli bagini arakshakah
arakshakah choran krishnati arakshakena choraha grihnante grihyante correct arakshakah is singular अवेन एकवचनं प्रथमपुरुषः पुल्लिङ्गम् आरक्षकः चोराः आरक्षके चोराः गृह्यन्ते ओके
Go downstairs. Just excuse me for a few minutes. Lord Murga is coming, the professor, to our house. I have to go down and come back, okay?
Okay.
Just 1 minute.
Okay.
Shashti, okay. Okay. Just...
Kanta Shashti. Yes.
क्षम्यताम् सारी कुत्र आसीत् तत्र कः पठति
गृह्णाति आरक्षकेन चोराः गृह्यन्ते गृह्यन्ते आरक्षकेन चोराः हृद्रातो हृ गृह्णाति गृह्णातो गृह्यति गृह्यते इन् कर्मणि प्रयोगे गृह्यन्ते सारी या गृह्यन्ते आरक्षकेन चोराः गृह्यन्ते
सेवेन्
गृह्यन्ते
गृह्यन्ते
ओके भारतीयाः नदीः पूजयन्ति भारतीयाः इस् इट् पुल्लिङ्ग आर् भारतीय भारतीयौ भारतीयाः इस्
इट्
इस् इट् स्त्रीलिङ्ग आर् इफ् इट् इस् भारती भारत्याः मीन्स् नो भारतीयाः भारत्यैः
भारतीयः भारतीयः पुल्लिङ्गं भारतीयाः
भारतीयाः सो इट् विल् बि भारत्यैः भारत्यैः तैः नदी नद्यः पूज्यन्ते भारत्यैः
भारतीयैः
प्रातिपदिकं नदी नद्यौ नद्यः तत्र नदीः नदी नद्यौ नद्यः नद्यः
पूजयन्ति
पूजयन्ति
पूजयन्ते ओके
धन्यवादः महोदय भवती
आं भगिनि भवती शाटिकाः क्षालयति सो भवत्या शाटिकाः क्षालयति क्षाल्यन्ते क्षाल्यन्ते क्षाल्यन्ते
क्षाल्यन्ते
सैनिकाः देशां रक्षन्ति सो सैनिकैः देशः रक्षति रक्ष्यते कीटः फलानि
कीटः
फलानि खादति so what is kit oh so kita insect right insect kitai hi
ki why kitai hi kita hai is bahuvachan va
oh no it's not bahuvachan so I thought it's kitah phalani khadanti so it would be kiten phalani khadyante
very good next one mashakaah
mashakaah raktam chushanti mashakaah so it's bahuvachan so mashakaihi raktah chushyante
na raktam is napumsakalingam it's not raktah raktam is raktam only vada prathama aditiya raktam
chushyante
किमर्थं बहुवचनं तत्र शूषन्ति इस् बिकास् मशकाः इट् गोस् द वर्ब् गोस् वित् दि कर्तृपदम् इदानीं
चुष्यते बिकास् रक्तं वुड् बि नो बहुवचन सो इट् वुड् बि चुष्यते
शुष्यते ओके व्यावहारिकशब्द वा शब्द आवली तत् ऐम् नाट् गोइङ्ग् टु डू दट् चाट् श्लोकः नरोत्तमदास् पठतु
रे रे रसभं
रसभं वा
इङ्ग्लिश् थिङ्ग् आल्सो वी शुड् रीड् सो देट् विल् गेट् सम् ऐडिया
आं महोदय Once an erudite scholar went to the court of a king. The officers in the court treated him like an ordinary person. As a result of it, the king also did not show any interest in him. He believed the words of his officers and ignored the scholar. Those in the royal court who knew about his erudition remained silent. The scholar noticed that the men of little learning were getting the king's favor. When he came out of the palace, he saw a donkey and said these words. Rasabham, Rasabham Drishtva, Uttavan.
No, read it.
Vidhanu Patatu. Mahodaya. Re, re, Rasabha, Vastra Bhara Vahanat, Kugrasam Ashnasi Kim, Rajashvastham Prayahi अश्व अवसतम्
आवसतम् आवसतम् प्लेस्
आफ्
हेबिटेशन् राज इन् अदर् वर्ड्स् टेबल् No, the horses. Raja Ashwa Avasatam Prayahi. Raja Rajna Rajna Ashwa Avasatam. Tatra Prayahi if you say.
Prayahi.
Tatra Dhatu Kim. Prayahi. धातु किं तत्र प्रयाहि तत्र धातु किम् कल्पना भगिनी प्रयाहि तत्र धातु किं तत्र लकारः किं वचनं किं पुरुषः किं
ऐ डोण्ट् नो धातु इन् दिस् प्रयाहि
धर्मराजन् महोदय
उपसर्ग
धातु किं प्र इति युक्ते किं भगिनि कल्पना भगिनी प्र इत्युक्ते किं तत्र
इट्स् उपसर्ग रैट्
प्र इति उपसर्गं सो सो वाट् इस् द धातु देन्
या धातु
या इस् द धातु सो या हि तत्र लकार किं
लोट्लकारः मध्यमपुरुषः एकवचनं
एकवचनं वित् प्र उपसर्गे या इति धातु या धातु याति याति मीन्स् गच्छति ओके टु गो तत्र अदादिगणे अस्ति तत्र अदादिगणे अस्ति तस्मात् धातु इमीडियट्लि नो विकरणप्रत्ययः नथिङ्ग् इन् बिट्वीन् धातु थिङ्ग् प्रत्ययः नथिङ्ग् इन् बिट्वीन् नो विकरणप्रत्ययः फोर् सेकेण्ड् क्लास् दिस् बिलाङ्ग्स् टु अदादिगण you have to get used all this ganas now. So because it's adadi gana, so it is yati. There is nothing in between. So yati. So gam dhatu becomes gachya, then gachya, ati gachyati. That is different. That is vadi gana. Atra yati iti is adadi gana. So yahi is, as Narottama Das said, it is lotlakara madhima purusha ekavachana. Pra is the upasarkam. Go towards, to go, prayahi, prakachatu, like that. So that's a Raja Ashwa Avastam. Raja Naam Ashwa Avastam, towards that, gachatu. He's saying, go to the king's stable. Idani patatu mahariyan, Narada Vadas.
Raja Ashwas... राजाश्व
राज अश्वा आवस्तम् आवसत् आवसतम् आवसतम्
आम् महोदय राजा अश्वाहि प्रयाहि चणकाभ्यूषं सुखं भक्ष्य
भक्षय
सर्वान् पुच्छवतो हया इति वदन्त्यत्राधिकारे स्थिताः
पदच्छेदं करोतु वदन्त्यत्राधिकारे पदच्छेदं करोतु
वदन्ति अत्र अधिकार
Very good, very good. Vadanti atra adhikare. Vadanti yogaha atra. Kim bhavati tatra?
Yan sandhi.
Yin yogaha becomes?
Yeah.
Yes. Sandhi kim? You haven't done that sandhi, right? Yan sandhi. There is yan sandhi. Yin yogaha a? Yeah. Vadanti atra. Vadanti atra. देन् वदन्त्यत्र अधिकारः तत्र किमर्थं दीर्घ वदन्त्राधिकार
सवर्णसन्धि
सवर्णदीर्घसन्धि वदन्ति अत्र अधिकार अत्र एन्स् वित् अकारः अधिकारः बिगिन्स् वित् अकारः सो आ प्लस् अ दीर्घ अकारः वदन्त्यत्राधिकारे तत्र स्थिताः
राजा तैरुप तैरु
tai
raja tai tai rupadishtameva
padachedam karote
tai
kalpana bhini padachedam karote
tai uddishta meva tairu
dharmaraj mahodaya or padachedam karotu tairu padishtameva
tairu padi ashtameva is that right bhagini ashtam eva
na kalpana bhagini again go to try
tai arupa uddishta
na 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 am sudha bhagini
taihi upadishtam eva
ha taihi raja taihi upadishtam upadishtam means upadesham iti iste kim
to give advice
advice
ha raja taihi by whom तत्र तकसा सर्वान् हया इति वदन्ति तत्र तैः स्थिताः राजा तैः उपदिष्टमेव उपदिष्टम् इत्युक्ते उपदेशितवान् उपदेशं कृतवान् राजा हस् बीन् अड्वैस् उपदेश मीन्स् अड्वैस् उपदिष्टः राजा उपदिष्टः उपदिष्टम् एव तैः उपदिष्टमेव मनुते सत्यं ततस्ताः परे सुधा भगिनी वदतु किमर्थं तत्र
फ्रम् द बिगिनिङ्ग्
सेकेण्ड् लैन् अण्ड् द फोर्थ् लैन् सर्वान् सर्वान् पृच्छवतो
सर्वान् पृच्छवतः टोल्ड् बै आल् दीस् haya the horses iti das vadantya told atra here adhikare the person in position sthitah staying those who are staying here and told
no pada pratipada madato kuchavato iti uske
kuchavato that told kuchavatah oh okay go ahead
yasya
what is pukshavato
yasya pucha
ha what is it
with the tail
so, what pratyay is that pucchava madu pratyay gunavan like that pucchavan one who has a tail pucham means tail pucchava pucchavan pucchavantau pucchavantah like that pucchavatah पुच्छवतः पुच्छवताः पुच्छवतः हया हयाः हया मीन्स् दे आर् हार्सेस् अश्वाः हयाः दे आर् आल् हार्सेस् सेम् समान अर्थमेव सर्वान् पुच्छवतः एनिथिङ्ग् दट् हास् अ टेल् पुच्छवान् पुच्छवन्तौ पुच्छवतः पुच्छवतः हयाः they're all horses iti vadanti they all say
adhikarah adhikarah
sthitah adhikare sthitah ai astra adhikare sthitah the one who are people who are seated there sthitah in the authority
raja the king taihi there upadishtam eva according to their advice only manate he listens
he has been advised
satyam the truth tatastaha pare the raja
he thinks satyam that is the truth is, the king thinks that
tatastaha pare and sits
kaha kaha satyam I mean idanim ava narodavadas katam satyam kim satyam
तैः
न तैः तत् सत्यम् इति राजा चिन्तयति किम् अनाधिकार न न पुच्छय हयः तत्र पुच्छवान् कोऽपि प्राणी तत्र पुच्छमस्ति चेत् ते हयाः इति उपदिष्टवान् अस्ति राजा तत्र तादृशमेव सत्यं वटव वाक्यं तत्र अधिकारे वदन्ति तेन वाक्येन राजा उपदिष्टं भवति तस्मात् मनुते तत् सत्यमेव इति मनुते तटस्थिता तटस्थाः परे तटस्थाः इति तटा मीन्स् फेन्स् लैक् सिटिङ्ग् अदर्स् द अदर्स् दे शो इन्डिफरेन्स् दट् मीन्स् दे सिट् आन् द फेन्स् दट् मीन्स् दे आर् नाट् गोयिङ्ग् दिस् वे आर् दट् वे दे आर् नाट् गोयिङ्ग् टु गो अगेन्स्ट् आल् दीस् स्टूपिड् अधिकारे वदन्ति दे आर् से पुच्छ कोऽपि पुच्छवतो हया इति वदन्ति यत्र अधिकारः स्थिते अधिकारः वदन्ति पुच्छवतो हयाः इति तामेव तत् सत्यमेव इति राजा चिन्तयति परन्तु तटस्थाः इस् एन् इण्डिकेनबल् ओके अव्ययं तटस्थाः इति द पीपल् हू स्टाण्ड् न्यूट्रल् दे डोण्ट् वाण्ट् टु कमिट् देर् सेल्स् सो परे others think they are in and other way they won't be to be there they don't want to go either way this way or that way idanim the whole statement idanim patatu bagini kalpana bagini vadatu re re rasabha
vastra bhar vahanat kushagra
rasabha iti vibhakti ka
rasabha
रासभ इत्युक्ते किम् रासभ इत्युक्ते किम्
ऐ थिङ्क् डोङ्की
कल्पना भगिनि
डोङ्कि
रासभ विभक्ति किं विभक्ति का
रासभ प्रथमा विभक्ति एकवचनं
वस्त्राणां भारवहनात् इत्युक्ते किं
सो
वाट् इस् द डोङ्की डू
वैल् केरिङ्ग्
Bhaaram, it's a heavy cloth, it's carrying on his back. Vastra Bhaara Vahanaat, then Kugra, Tatra Pada Chetan Kadatu?
Kugrasa, Ku is the
Upasarga. Wait, Kalpana Bhagini.
Ku is the Upasarga, Kugrasa. Grasa means...
No. Ku Atra Upasarga Nasti. Kugrasam means ku, whenever there is a ku in front of any word, that means bad. Grasa, kugrasam, why are you eating all this?
That's why I thought ku is upasarga.
It's not a upasarga. I mean, it doesn't belong to the pradaya. There are 22 upasargas are there, that is ku is not there. Ku is just means... कुपुरुषः मीन्स् बेड् मेन् बेड् मेन् कुग्रामं दट् इस् बेड् विलेज् एनिथिङ्ग् दट् इस् बेड् यु आड् कु इन् दि बट् दट् डस् मीन् इट्स् उपसर्गम् इस् एडेड् ओन्लि फार् अ वर्ब्
ओके
नाट् फार् अ प्रातिपदिकम्
इन् मराठि आल्सो वि यूस् कु वर्ग कु कु ऐ मीन् कु शब्द Ku means everything bad if you add it to any. So ku is very familiar to Maharashtrians. So ku grasa means bad food. Grasa means his food bite.
Whatever that grass is.
Yeah.
But you said it's a upasargam. Bhagini, Upasargam is added only before a dhatu, not grass. This is just a prasipatikam. Cook grass and bad grass.
Yes.
Okay?
Cook grass and mashnasim kim.
Ashnati is, to eat. Why are you eating? Ashnati, annam ashnami, I'm eating rice. Oh. Ashnati is to eat. Ashnati is kyavaka. Kim pushana, machanam, bagini, wait. Kalpana bagini.
Ashnasi. So it would be madhyam purush, ekvachan.
So kimartam, kukrasam, bakshayati, like that.
It says, why you are eating bad grass, right?
Yeah. Next line, patatu. Raja
shvavavasatham.
Raja ashva avastam. Avasatam. Raja ashva avasatam. That is royal stable. Raja means Raja. Raja ashva avasatam means place where the horses stay.
They are staying.
Prayahi. Go towards that royal stable.
Chanaka sukham bhakshaya. Chanaka abhyusham. Is it?
Chanaka means what is made out of whatever that is. Chana. And abhyusha means the cakes. That's what they may do for their horses, isn't it? They make, grind it and make it into a dry cake. Like, so, chanaka abhyusham, sukham bakshaya. Go and eat happily what the horses are given. Chanaka abhyusham. Kimartam tatra kugrasam hashnati. Why are you eating the bad grass? Bhavati vastra bharavahana. You do a lot of work by carrying the clothes. Vastra bara vahanad. Kugrasam ashnasi kim. Kimartam kugrasam ashnasi. Parantu chanakabhyusham sukhena bakshaya. Bakshayati. Tatra bakshaya. Tatra again lot lakara madhima purusha eka vachana.
Yeah.
Have you all understood that?
Yes.
Idanim Dharmaraja Mahodaya, the whole thing, say it properly with every word.
Okay. Padam. Rasabha Vastra Bara Vasanat Kugrasama Ashnasi Kim.
Kugrasam. Ashnati, tatra makaraha, amama makaraha kugrasam, that is the dhitiya vibhakti tatra. Why do you eat ashnasi? Why do you eat the kugrasam? Kim?
Kugrasam ashnasi kim? Raja ashva avasatam prayahi. Chanaka abhyusham sukam bashya.
Bakshaya. Bakshaya, lot lakara, bakshayati, bakshaya.
Okay. Bakshaya.
Sarvan.
Puchyavato haya iti vadantya vadantyatri.
Idani meva padachedam krita kopi chedam.
Vadanti atra adhikare stita. Sitaha. Raja Taihi Upadishtameva Manute Satyam Tatastaha Pare.
Shall we go to the next? Have you all understood that? Every word? Shamanadas?
Amodaya.
Okay, now Samasya, we'll finish with that. श्यामनन्ददास् वदतु, पठतु. अहं च,
अहं च, त्वं च, राजेन्द्र लोकनाथै लोकनाथौ उभावपि बहुव्रीहिरहं राजन् षष्टितपुरुषो भवान्.
प्रतिपदं पदच्छेदं करोतु. अहम्,
अहं च, त्वं च, राजेन्द्र,
राजेन्द्र इति तत्र
राजस्थान,
तत्र का विभक्ति, का का विभक्ति,
सम्बोधन,
सम्बोधन.
लोकनाथौ,
लोकनाथौ इति का विभक्ति, वचनं विभक्ति, का
द्वितीयवचनं, द्वितीयवचनं,
द्विवचनं. किमर्थं
लोकनाथौ, अहं च, त्वं च,
यू अण्ड् मी, ऐ अण्ड् यू, ऐ अण्ड् यू आर् ओ राजेन्द्र लोकनाथौ, बिकास् देर् आर् टु आफ् अस्, यू अण्ड् मी आर् लोकनाथौ. उभौ अपि, उभौ अपि इस् both of them, we are both of us, and both of both of us, again is an indeclinable, it says both of us, both of whether we say both of us or both of them, it still it be ubau api ubavapi, ubau api ubavapi. Tatra kya ka kidrusha sandhi tatra
ayava ayava yantavanta
yantavanta sandhi tatra aya au becomes av tatra ubavapi. Read the next line.
Bahu vrihi raham rajan.
Bahu vrihi aham, bahu vrihi tatra repa visargam becomes a repa. Bahu vrihi hi aham, bahu vrihi raham rajan
shashti tatpurusho bhavan.
भवान् षष्ठीतत्पुरुषो इति तत्र बहुव्रीही अपि च षष्ठीतत्पुरुषः, दोस् टु आर् नेम्स् आफ् टु टैप्स् आफ् समास, नेम्स् आफ् समास आक्चुलि, बहुव्रीही समास, षष्ठी तत्पुरुषसमास, देर् आर् फोर् डिफ्रेण्ट् टैप्स् आफ् समास तत्र, ऐ मीन् पूर्वपद पूर्वपदप्रधानं, पूर्वपदमेव प्रधानम्, उत्तरपदप्रधानं, उभयपदप्रधानम्, अन्यपदप्रधानं. तत्र बहु षष्ठी तत्पुरुषसमास तत्र टेक्स् दि षष्ठीविभक्ति, षष्ठी तत्पुरुषो भवान्. स लो बोत् आफ् देम् केन् एनिबडि अण्डर्स्टाण्ड् इट्? सुधा भगिनी, केन् एक्स्प्लेन् वाट् इट् मीन्स्? लेट्स् सी वद हौ मच् ऐ हव् अण्डर्स्टुड्. सुधा भगिनी, पुनापि मूलि भगिनी,
यस् भगिनी, लोकनाथौ इस् द वर्ड् केन् बि, ऐम् सारि, ऐ वास् आन् म्यूट् भगिनी, केन् बि स्प्लिट् टु लोकः नाथः.
क्रीडपदं वा?
लोकनाथौ इस् अ वर्ड् नाथः, लोकनाथः इस् अ वर्ड्. There are two.
Is a what? Is a what, Bhagini? Lokanathau is a word. Now, I don't know what you're saying. Lokasya nathaha
lokanathau. Lokasya nathaha is a lokanathau.
But you said verb, didn't you?
Both of them are lokanathau. They say, aham chatvam cha lokanathau ubhavapi. Myself and Raja. Tvam, both of us, Lokanatha.
Right. Yes, both of us, we are both Lokanatha. Lokanatha. Ahamati Lokanatha, Tvamati Lokanatha.
bhavan shashti tat purushah but you are the lokasya natah shashti is shashti vibhakti lokasya natah so bhavan
tatra lokana
natah aham bahuvrihi bahuvrihi
aham bahuvrihi bahuvrihi aham bahuvrihi aham that you won't understand the bahuvrihi is another kind of samasa name of samasa bahuvrihi aham rajan srashti tat purushah bhavan bahuvrihi aham rajan itte tatra bahuvrihi means one who has a lot of grains of corn in him so a rich farmer like but aham bahu bahuvrihi so the bahuvrihi itte tatra it doesn't mean either bahu or vrihi 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 means corn a bahu or lots of so it doesn't anya pada amya pada pradanam so it has to the meaning will be entirely different to the whatever the name given there that the lokanatho iti bahuvrihi if you take it as the lokanatha as a bahuvrihi samasa total lokah natah yasya sah the whole world is a natah wow lokah natah yasya sah lokanatha so lokanam natah is shashti tat purusha bhavan you are the king of the people but the whole world is the whole loka eva natah for me Rajan how I don't know how to explain that can you, somebody else explain this
yeah he says
yeah it is given in 19
natha protector is the whole world and you are the natha of the whole world
yeah lokah natah yasya sah the word the he
patron
what do you say but lokanatah means lokanatah means beggar the same when you say shashti tat purushah it becomes lokanam natah you can split the lokanatah lokah natah yasya sah or lokanam natah the lord of the people so lokanatah means here the king so we are both the lokanatah eva but you are in the bahuvrihi aham aham rajan he say but shashti tat purushah bhavan the world is at his command this the beggar is saying but for him the king the king is the lord of the people that's all okay
I thought here I am the beggar and you are the king like that I am the one that depends on the entire
I can't hear you beginning
I said I mean my understanding was which may be wrong bahuvrihi
I can't still can't hear you can you speak a bit loud beginning
okay one second yeah can you hear me now
yeah
so bahuvrihi raham I thought here is I am the beggar because I depend on the entire jagat I mean
don't hear it
yeah whereas you are the king of the jagat
then the whole world at his feet
no the whole I thought I depend on the whole world the whole vihi
yeah he's the beggar is saying he is superior to the king in other word how you split it depends upon the samasa you create there idanim samyam na
अष्टनवतम पत्रम् पत्रे अस्ति उत्तरम्
उत्तरं तत्र उत्तरं नास्ति तत्र हौ यु स्प्लिट् वाट् इस् बहुव्रीहि समास वाट् इस् षष्ठी तत्पुरुषसमास तत्र तादृशमेव सो वन् इस् बहुव्रीहि समास when you split the lokanathaka as a bahuvrihi samasa lokah natah yasya sa who protectors are the people and then lokanatha means beggar, the same and disorder sastita purusha that will be lokana lokanam natah the lord of the people okay
Next week, Thanksgiving weekend for us. Oh, I don't know what about others. You are the only one. Shubhra Bhagini is not there. Deepa Bhagini is not there today. For UK Bhagini, so we are okay.
There was no Thanksgiving in UK anyway.
Nobody thanks anybody.
Okay. There is Thanksgiving every day in India. Every day there is a profession going on. Every day fireworks going on. No peace. Idanim samaptam kurmah va? Sarve bhavantu sukhinah.
सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु
मा कश्चित् प्रभाग् भवेत् ॐ
शान्ति शान्ति शान्तिः